इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य आर्जेडीदलस्य काङ्ग्रेसदलस्य च उपरि प्रहारं कुर्वता विहारप्रदेशं प्रवासीनां प्रदेशः कृतः इत्युक्तं। तेन विहारस्य सीवाननगरे प्रायः 5,900,000,000,000,000 रूप्यकाणां बहुविधविकासपरियोजनानां शिलान्यासः उद्घाटनञ्च कृतम्। अद्यारभ्य सिक्किमराज्यस्य नाथुलाक्षेत्रात् समारब्धायां वार्षिककैलासमानसरोवरयात्रायां 36 तीर्थयात्रिकाणाम् अधिकारिणाञ्च प्रथमः समूहः कैलासमानसरोवरप्रदेशं प्रति यात्रार्थं तिब्बताख्यं स्वायत्तप्रदेशं प्रविष्टवान्। पश्चिम एशियायाः स्थितिं यथाशीघ्रतया सामान्यीकर्तुम् ईरानदेशस्य विदेशमन्त्रिणः जिनेवानगरे जर्मनी फ्रांस यूके देशानां विदेशमन्त्रिभिस्सह मेलनस्य कार्यक्रमः अद्य अस्ति। भारतीय ऋतुविज्ञानविभागेन अस्य मासस्य 25 दिनाङ्कपर्यन्तं वायव्यमध्यभारतयोः केषुचित् भागेषु प्रचण्डतोप्यधिकवर्षायाः पूर्वानुमानं कृतमस्ति। अपि च क्रिकेट क्रीडायां भारत इंग्लैंड देशयोर्मध्ये तेंदुलकर एंडरसन ट्रॉफी निकषस्पर्धायाः प्रथम क्रीडा लीड्स नगरस्य हेडिंगले क्रीडांगणे प्रचलति। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य आरजेडी पक्षस्य कांग्रेसपक्षस्य च उपरि प्रहारं कुर्वता ते विहारप्रदेशं प्रवासीनां प्रदेशः कृतवन्तः इत्यारोपः कृतः। सः अवदत् यत् एनडीए इति प्रशासनेन राज्यमिमं पुनः विकासस्य मार्गे आनीतम्। श्रीमोदी सीवाननगरे जनसभां सम्बोधयन् इत्यपि आरोपितवान् यत् राज्यस्य युवकाः केवलं बिहारस्य दुर्दशायाः विषये एव श्रुतवन्तः। पूर्वतनशासनकाले राज्ये कथं कुशासनम् आसीत् इति ते न जानन्ति प्रायः। सः बिहारस्य जनान् आश्वासितवान् यत् तस्य सर्वकारः राज्यस्य विकासाय निरन्तरं कार्यं करिष्यति। अस्मिन् विषये बिहारराज्यम् अतीव महत्वपूर्णां भूमिकां निर्वहति इत्यपि सः अवदत्।
मैं कल ही विदेश से लौटा हूँ। इस दौर में मेरी दुनिया के बड़े बड़े समृद्ध देशों के नेताओं से बात हुई। सारे नेता भारत को दुनिया की तीसरी बड़ी आर्थिक महाशक्ति बनते देख रहे हैं। इसमें बिहार की बहुत बड़ी भूमिका होने वाली है।
तत्पूर्वं प्रधानमन्त्रिणा नरेन्द्रमोदिना बिहारस्य सीवाननगरे प्रायः 900,000,000,000 रूप्यकाणां बहुविधविकासपरियोजनानां शिलान्यासः उद्घाटनञ्च कृतम्। प्रधानमन्त्रिणा बिहार उत्तरप्रदेशयोर्मध्ये 400,000,000,000 रूप्यकाणां नूतन वैशाली डियोरिया रेल मार्ग परियोजना इत्यपि समर्पिता। श्रीमोदी पाटलिपुत्र गोरखपुर नगरयोर्मध्ये वंदे भारत एक्सप्रेस रेल यानस्य च ध्वजप्रदर्शनपूर्वकं शुभारंभं कृतवान्। नमामि गंगे परियोजनांतर्गतं 1,800,000,000,000 रूप्यकमूल्यात्मकानि 6 मल जल शुद्धीकरण केन्द्राणि अपि श्रीमोदी प्रदेशाय समर्पितवान्। राष्ट्रपतिपदासीना द्रौपदी मुर्मुवर्या जीवनस्य सर्वेषु क्षेत्रेषु दिव्यांगजनानां प्रोत्साहनस्य महत्त्वम् उक्तवती। सा अवोचत् यत् अधुना उन्नतप्रौद्योगिकीनां साहाय्येन दिव्यांगजनाः प्रभाविरूपेण मुख्यधारायां योगदानं दातुं सक्षमाः सन्ति। अद्य राष्ट्रपतिः देहरादूननगरे दृष्टिबाधितानां सशक्तिकरणाय राष्ट्रियसंस्थायां छात्रान् सम्बोधयन्ती आसीत्।
दिव्यांगजनों के जीवन के हर क्षेत्र में प्रोत्साहित करने के प्रयास समाज द्वारा अवश्य किए जाने चाहिए। आज का युग विज्ञान और तकनीकी का युग है। उन्नत तकनीकी की सहायता से दिव्यांगजन भी मुख्य धारा में अपने योगदान देने में सक्षम हो सकते। मुझे ये जानकर प्रसन्नता हुई है कि ই সংস্থান দ্বারা সমাবেশী শিক্ষা প্রণালী এবং নবীনতম টেকনিকি সংসাধনকে মাধ্যমে বিদ্যার্থীকে সর্বাঙ্গীন বিকাশ পর বিশেষ বল দিয়া যা রাহা হয়।
संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। अद्यारभ्य सिक्किम राज्यस्य नाथुला क्षेत्रात् वार्षिकी कैलास मानसरोवर यात्रा समारब्धास्ति। राज्यपालः ओमप्रकाश माथुरेण यात्रायाः ध्वजप्रदर्शनपूर्वकं शुभारम्भो विहितः। षड्त्रिंशत् तीर्थयात्रिकाणाम् अधिकारिणां च प्रथमः समूहः कैलासमानसरोवरप्रदेशं प्रति यात्रार्थं तिब्बताख्यं स्वायत्तप्रदेशं प्रविष्टवान्। नाथुलाक्षेत्रस्य अपरपार्श्वे चीनदेशस्य अधिकारिणः तेषां स्वागतार्थम् उपस्थिताः आसन्। ध्यातव्यमस्ति यत् प्रथमदलाय यात्रां समाप्य गैंगटोक इति नगरं प्रत्यागन्तुम् एकादशतः द्वादशदिनानां समयः अपेक्षते। पश्चिमेशियायाः स्थितिं यथाशीघ्रतया सामान्यीकर्तुम् अद्य ईरानदेशस्य विदेशमन्त्रिणः अब्बास अराग्ची इत्यस्य जिनेवानगरे जर्मनी फ्रांस यूके देशानां विदेशमन्त्रिभिः सह मेलनस्य कार्यक्रमः अस्ति। प्रसारमाध्यमानां सूचनानुसारम् ईरानदेशस्य विदेशमन्त्रिणा सह परमाणुसंवादात् प्राक् त्रयाणां यूरोपीयराष्ट्राणां मन्त्रिस्तरीयप्रतिनिधिदलस्य प्रथमतया जिनेवानगरे जर्मनीदेशस्य स्थायी मिशन् इति मध्ये यूरोपीयसङ्घस्य शीर्षकूटनीतिज्ञेन काजा कल्लस् इत्यनेन सह मेलनं भविष्यति। अग्रिमे सप्ताहे हेग इति नगरे नेटो इति नेतॄणां शिखरसम्मेलनात् पूर्वं कूटनीतिप्रयासः महत्वपूर्णः उपायः इत्यपि मन्यते। भारतीय ऋतुविज्ञानविभागेन अस्य मासस्य पञ्चविंशतिदिनाङ्कपर्यन्तं वायव्यमध्यभारतयोः केषुचित् भागेषु प्रचण्डतोप्यधिकवर्षायाः पूर्वानुमानं कृतमस्ति। अद्य दिल्ली हरियाणा चंडीगढ़ उत्तराखंड उत्तरप्रदेश बिहार राजस्थान गुजरात मध्यप्रदेश ओडिशा कोंकण गोवा पूर्वोत्तर भारतस्य केषुचित् भागेषु च पृथक् पृथक् स्थानेषु प्रचंड वृष्टिः भविष्यति इति ऋतुविज्ञान विभागेन पूर्वानुमितमस्ति। उत्तरप्रदेशस्य अधिकांशमण्डलेषु गतचतुर्विंशतिहोरासु वृष्टिः अभवत्। गुजरातराज्येऽपि वर्षैषा राज्यस्य अधिकांशं भागं व्याप्य अग्रे अगच्छत्। प्रचण्डवृष्ट्या स्थानीयाः नद्यः द्रुततया प्रवहन्तः सन्ति। राज्ये 15 जलबन्धाः अतिसञ्चेतनायां 10 जलबन्धाश्च सञ्चेतनायां सन्ति।
कुछ लोग सोचते हैं योग के लिए फ्लेक्सिबिलिटी चाहिए, लेकिन फ्लेक्सिबिलिटी तो सोच में होनी चाहिए ना, ना कोई बंधन ना कोई बॉडी टाइप। बचपन हो या पचपन, व्हीलचेयर हो या वर्क फ्रॉम होम, योग सबका हक है।
योग जीवन से जब जुड़ता है एक सहज क्रिया बन जाता है तो वो प्रतिपल उसका बेनिफिट देता रहता है।
आइए इस 21 जून हम सब हिस्सा बने अंतर्राष्ट्रीय योग दिवस का और करें स्ट्रेच एंड चिल योग के साथ।
संस्कृति मंत्रालय ने 11 अंतर्राष्ट्रीय योग दिवस आचर्यते। यत्र संपूर्ण देशे शततमेषु प्रतिष्ठित पर्यटनाधारितेषु गंतव्य स्थलेषु 50+ सांस्कृतिकस्थलेषु च योगसत्राणाम् आयोजनं क्रियते। एते श्वस्तनीयाः निर्धारिताः कार्यक्रमाः सन्ति। प्रामुख्येन आयुषमन्त्रालयेन विशाखापत्तन इत्यत्र प्रधानमन्त्रिणः उपस्थितौ एकः विशेषयोगोत्सवः समायोज्यते। केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः अद्य उक्तवान् यत् भारतस्य मृत्तिकायां सहस्रवर्षेभ्यः सहकार्यस्य भावना गभीररूपेण निहितास्ति। सः अवदत् यत् सार्वभौमिककल्याणस्य भावना भारतस्य नाडीषु धावति। भावनैषा सहकार्यस्य एव सारः अस्तीति सः अन्ताराष्ट्रिय सहकारिवर्षावसरे मुम्बय्याम् आयोजितं राष्ट्रियगोष्ठीं सम्बोधयन् अवदत्। अन्ते क्रीडावार्तायां क्रिकेट क्रीडायां भारत इंग्लैंड देशयोः मध्ये तेंदुलकर एंडरसन ट्रॉफी इति निकषस्पर्धायाः पञ्चक्रीडाशृङ्खलायाः प्रथमक्रीडा लीड्स नगरस्य हेडिंग्ले क्रीडाङ्गणे प्रचलति, यत्र इंग्लैंड देशीयेन दलेन पणकं विजित्य प्रथमक्रीडनाय भारताय अवसरो दत्तः। जलपानावकाशं यावत् भारतेन द्वयोः क्रीडकयोः हानौ 92 धावनाङ्काः रचिता इति वार्ताः।